इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। फ्रांस देशस्य एवियन नगरे G7 शिखर सम्मेलनावधौ प्रधानमन्त्रिणा नरेन्द्र मोदिना विभिन्नानां राष्ट्राणां नेतृभिः सह द्वैपाक्षिकोपवेशनं कृत्वा विस्तृतं कूटनीतिक कार्यं विहितम्। विदेशमन्त्रालयानुसारं प्रधानमन्त्रिणा श्रीमोदिना तथा तस्य कनाडादेशस्य समकक्षीयेण मार्क कार्नी इत्यनेन च भारत कनाडादेशयोः सम्बन्धेषु सकारात्मकतायाः स्वागतं कृतम्। ब्रिटिश प्रधानमन्त्री कीर स्टार्मर इत्यनेन सह मिलित्वा प्रधानमन्त्री श्रीमोदी 35-2000 दूरदृष्ट्यान्तर्गतं भारत यूके सम्बन्धानां प्रगतिं समीक्षितवान्। प्रधानमन्त्री मोदी G7 शिखर सम्मेलनावधौ UAE अध्यक्षेण शेख मोहम्मद बिन जायद अल नाह्यान इत्यनेन सहापि मिलितवान्। तथा च पश्चिम एशिया क्षेत्रे चिरस्थायि शान्तिं सुरक्षां स्थिरतां च प्रवर्धयितुं संवादस्य कूटनीतेः अन्ताराष्ट्रियविधेः सार्वभौमत्वस्य प्रादेशिक अखण्डतायाश्च सम्मानस्य महत्वम् अधोरेखितम्। केन्यादेशस्य राष्ट्रपतिना विलियम रूटो इत्यनेन सहापि श्रीमोदी मेलनं कृतवान्। श्रीमोदी अवदत् यत् भारतं केन्या च वैश्विक दक्षिणस्य आकांक्षासु दीर्घकालं यावत् सहभागित्वं कुर्वन्ति। जापानदेशस्य प्रधानमन्त्रिणा सह मिलित्वा श्रीमोदी अवधानं दत्तवान् यत् भारत जापानदेशयोः सम्बन्धः विविधेषु क्षेत्रेषु निरन्तरं सुदृढं भविष्यति। फ्रांसदेशस्य एवियन नगरम् अद्य वैश्विक कूटनीतेः केन्द्रः अस्ति यत् G7 शिखर सम्मेलनस्य महत्वपूर्णे चरणे अस्ति। भारतस्य सहभागिदेशस्य रूपेण सहभागित्वेन सर्वेषां दृष्टिः प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह बहुप्रतीक्षितायां द्वैपाक्षिक सम्मेलने दृढतया निबद्धः अस्ति यत् अद्य शिखर सम्मेलनावधौ भविष्यति। 25,000 फरवरी मासे वाशिंगटन डीसी इत्यत्र अन्तिम वारम मेलनानन्तरं उभयोः मध्ये एतत् प्रथमं मेलनं भविष्यति। अद्यतनस्य संवादस्य समये तौ बहुविध क्षेत्रेषु द्वैपाक्षिक सहयोगं सुदृढं कर्तुं चर्चां करिष्यतः तथा च परस्पर हितानां क्षेत्रीय वैश्विक विषयेषु चर्चां करिष्यतः इत्यपेक्षा अस्ति। अमेरिकादेशस्य राष्ट्रपतिना सह मेलनम् अतिरिच्य अद्य प्रधानमन्त्री श्रीमोदी सर्वेभ्यः लाभाय सन्तुलितं सर्वसमावेशं सुस्थिरं च आर्थिकवृद्धेः पुनरुत्थानम् इत्यस्मिन् विषये तथा कृत्रिमबुद्धिमत्तायाः सुरक्षितं द्रुतप्रभावी उपयोगं सुनिश्चेतुम् इति विषये G7 इत्यस्य कार्यसत्रे अपि भागं ग्रहीष्यति। प्रधानमन्त्री EU परिषदः अध्यक्षेण एन्टोनियो कोष्टा इत्यनेन सह EU अध्यक्षस्य आयोगस्य अध्यक्षया फॉन डेर लेयन इत्यनया सह त्रिपक्षीय सम्मेलनं करिष्यति। जर्मन चांसलर फेडरिक मर्ज इत्यनेन सहापि द्वैपाक्षिकोपवेशनं भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः फ्रांसदेशस्य एवियन नगरे G7 शिखर सम्मेलने नूतन सहभागित्वस्य निर्माणं तथा अन्ताराष्ट्रिय ऐक्यभावस्य पुनर्निर्माणम् इत्यस्मिन् विषये सत्रम् अभिसम्बोधितवान्। विदेशमन्त्रालयेन सूचितं यत् सत्रावधौ प्रधानमन्त्रिणा अन्ताराष्ट्रिय सहभागित्व विनिर्माणे विशेषतः वर्धमान परस्पर सम्बद्ध विश्वे विश्वासस्य महत्वम् अधोरेखितम्। सभायां प्रधानमन्त्रिणा अधोरेखितं यत् भारतं सर्वदा मानवतायै प्रथमम् इति दृष्टिकोणम् अनुसरति। सः अग्रे अकथयत् यत् भारतस्य अन्ताराष्ट्रिय सहभागित्वस्य दूरदृष्टिः वसुधैव कुटुम्बकम् इत्यस्य कालातीतदर्शनस्य आधारेण अस्ति, विश्वमेकः परिवारः अस्तीति। फुटबॉल क्रीडायां गतरात्रौ न्यूजर्सी क्रीडांगणे प्रथमसमूहस्य आरम्भिक क्रीडायां फ्रांसदेशेन सेनेगलदेशं 3-1 इति अंकैः पराजितम् इति वार्ताः।